इति सिद्धान्तकौमुद्याः समासप्रकरणे अव्ययीभावप्रकरणम् आरभ्यते. येनाक्षरसमूहं नायम् अधिगम्य महेश्वरात् कृत्स्नम् व्याकरणम् प्रोक्तम् तस्मै पाणिनये नमः. वाक्यकारम् वररुचिम् भाष्यकारम् पतञ्जलिम् पाणिनिम् सूत्रकारम् च प्रणतोऽस्मि मुनित्रयम्. मुनित्रयम् नमस्कृत्य तदुक्तीश्वरिभाव्ये च वैयाकरणसिद्धान्तकौमुदीयम् विरच्यते. You learned some basic things about Samasa in the last week. So you'll see how the Sutrakara actually puts it across. Everything which we learned in the last week, everything comes from the Sutras. Sarvamapi Sutra Deva Agachati. Samanyataha Edyad Gnatavyam Iti Maya Chintitam Tat Sarvam Uktam. Kintu Punaha Sutrebhyaha Tat Taduchyate Katham Sutrakaraha Vadati Tasya Chim Tatparyam Iti Drashtavyam. समर्थः पदविधिः इति समासप्रकरणे प्रथमं सूत्रम् अष्टाध्याय्यामपि सिद्धान्तकौमुद्यामपि. अष्टाध्याय्यां समासप्रकरणं द्वितीयाध्याये प्रथमपादे द्वितीयपादे च उक्तमस्ति. स्टार्टिङ्ग् फ्रम् 2.1.1 द होल् आफ् द फस्ट् पाद एण्ड् द सेकेण्ड् पाद आफ् द सेकेण्ड् चाप्टर् आफ् अष्टाध्यायी इस् रिलेटेड् टु समासस्. समासविधायकानि सूत्राणि तत्र उच्यन्ते. दीक्षितैः सिद्धान्तकौमुद्यामपि तेनैव आरभ्यते. समर्थः पदविधिः इति सूत्रम्. कोऽर्थः पदसम्बन्धीयो विधिः सः समर्थाश्रितो बोध्यः. दिस् सूत्र अप्लैस् नाट् ओन्ली टु समासस् बट् आल्सो टु तद्धितस्. पदविधिः पदस्य विधिः पदविधिः अत एव पदसम्बन्धीयो विधिः इति दत्तम्. समासः पदविधिः तथैव तद्धितश्चापि पदविधिरेव. सो एनी समास एनी विधि विच् इस् रिलेटेड् टु पद समर्थाश्रितः बोध्यः. इट् डिपेण्ड्स् आन् सामर्थ्य. सो सामर्थ्ये सत्येव सः विधिः भवति इति अस्य अर्थः. इस् अ परिभाषासूत्र. सो इट् जस्ट् टेल्स् दट् एनी पदविधि इफ् यु आर् डूयिङ्ग् एनी विधि वित् पदस् यु शुड् एन्श्योर् दट् देयर् इस् सामर्थ्य. सामर्थ्ये सत्येव भवति. समासः सामर्थ्ये सत्येव भवति. तद्धितश्चापि सामर्थ्ये सत्येव भवति. सामर्थ्यं द्विविधम्. सामर्थ्य इस् आफ् टु कैण्ड्स्. विवेक्षालक्षणं सामर्थ्यम्, एकार्थीभावलक्षणं सामर्थ्यम् इति सामर्थ्यं द्विविधम् अस्ति. विवेक्षा नाम का इति पश्यामश्चेत् स्वार्थपर्यवसायिनां पदानाम् आकाङ्क्षादिवशाद्यः परस्परान्वयः तद्विपेक्षाभिधम् सामर्थ्यम् इति उच्यते. विपेक्षासामर्थ्यम् इत्यत्र सम्बद्धार्थः समर्थः. समर्थ सामर्थ्यम् सम्बद्धः अर्थः. द मीनिङ्ग् शुड् बि रिलेटेड् टु ईच् अदर्. स्वार्थपर्यवसायिनां पदानाम् पदानाम् द ईच् वर्ड् हेज़् इट्स् ओन् मीनिङ्ग्. वेन् यु आर् से स्पीकिङ्ग् इन् अ सेण्टेन्स् ईच् वर्ड् विल् हेव् इट्स् ओन् मीनिङ्ग्. Now, the meaning of these words will be related to each other. For example, if I say, Saha Rajyaha Putraha, Saha has its own meaning, Rajyaha has its meaning, Putraha ityasyapi Swarthaha Bhavati. Parasparam Anvayaha Bhavati. Rajyaha ityukte Rajyah Kim iti Prashnaha Udayati. Evam Putraha ityukte Kasya Putraha iti Akanksha. So if you studied Tarka, you will know there are three parameters in a Vakya. Akanksha, Yogyata and Sannidhi. Akanksha is this. That is a desire for completeness. If you just say the kings, Rajyaha iti ukte, Kim iti prashnaha udeti, sa eva akanksha. Vakyam purnam nasti. If you just say Devadattaha, Kim karoti, gacchativa, svapitiva, pathativa, akanksha asti. Vakyam purnam bhavet. So that desire for completeness is called akanksha. Because of this akanksha and other things, there is paraspara anvaya. Padanam paraspara anvayaha bhavati. Etadeva samarthyam iti uchyate. So, the capacity of words to be related to each other. They are all independent. Svartha paryavasayinam padanam akankshadivashadhyaha paraspara anvayaha tad vyapekshabhidham samarthyam. This is one kind of samarthya where we say sambaddhaha arthaha samarthaha. Related meaning is called samarthya. So, vakya vivekshya vidham samarthyam bhavet. Every sentence should have this samarthya. Without vivekshya, there cannot be a vakya. Because the words are not standing independently. The words need to be related to each other. Okay. For example, you have a sentence like rajyaha purushaha ashvaha cha. So now rajyaha ityasti. Rajyaha iti shabdasya purushapadena samarthyamasti ashvapadena api samarthyamasti. We are talking about a man who belongs to the king. That is a king's servant and a king's horse. So rajan shabdasya purushapadena api samarthyamasti ashvapadena api samarthyamasti. Kintu purushapadasya rajan ityanena iva anmayaha natu ashvena. Right? It's the horse, there is no relation between purusha and ashva. Both of them are related to the king. Okay. But the king is related to both. But purusha and ashva are not related to each other. So there is a samarthya. Rajan shabdasya purusha shabdena samarthyamasti. Ashva shabdena api samarthyamasti. Purusha shabdasya tu rajan ityanena iva samarthyam natu ashva shabdena. Etadrisham samarthyam sarvatra vakya bhavati. So that is what helps us relate the words in a vakya. Etatsa samarthyam vyapeksha iti ucchyate. So, akanksha, I was speaking about, akanksha, yogyata and sannidhi are three things which are there in a vakya. For a vakya to make sense, there should be three things. Akanksha is there should be relation between the words. Paraspara anvayaha. As I said, when you say devadattaha, gachyati, etc. If it's a complete vakya, there is an akanksha between the words and there is paraspara anvaya. If I just say a list of words, gaurashvah purusho hasti is an example, standard example they give. If you just list out words, there is no paraspara akanksha and no paraspara anvaya. So that is not a sentence. What they do is, what is the sentence, is the question they are dealing with. So they say all these three things should be there. The first one is akanksha. There should be completeness of avakya, which happens only when there is paraspara anvaya. Yogyata. The next thing is, the meaning should be proper. An example is, vanhina sinchati. He sprinkles with fire. Now, vanhi does not have the yogyata for seka kriya. Sechana or sprinkling, it should happen with a drava dravya. It requires water or some fluid for sprinkling. So, vanhina sinchati ityatra akanksha asti. Vanhina ityukte kim karoti iti prashna hodeti. Sinchati ityukte kena sinchati iti akanksha asti. Vanhina sinchati ityukte akanksha puryate. Kintu yogyata nasti. There is no yogyata for vanhi for sekakriya. Sekakriyayam vanhehe yogyata nasti. Ataha vannina sinchati iti vakyam na pramanam iti tarkikaha. Akanksha yogyata and sannidhi. Sannidhi is where the word should be told in a sequence or close together. So you say, you pronounce a word now. Say you say gam now. And after an R you say anaya. Okay. So now there is no sannidhya between gam and anaya. Which means that vakya will not make sense. It need not be the difference of an R. You also see this in a kavya. Sometimes what happens is when you have a kriya pada at the beginning of a padya and the karma pada somewhere, there is a difficulty in relating them. So sannidhya is where the words have to be close enough to for the listener to be able to interpret it properly. So they are the three parameters in a vakya. Sannidhi and anvaya are not the same. Anvaya is relation between each other. Sannidhi is closeness. That is, you have to utter them closely for them to make sense. Okay. So, in kavya there is some amount of license. But when you are speaking properly, there is a certain order. I mean, when you have the words should be close together for you to be able to relate them. Okay. You say one sentence now and then say some words and then say another word. So you will not be able to make sense out of the vakya. So all three things are related with making sense out of the vakya. Anyway, we are not concerned with that. Coming back to samarthya. Vyapeksha samarthya vakya bhavati. So it is a samarthya where You have words which can be related to each other and can make sense. The other kind of samarthya, the one which we require here, is called ekarthi bhava samarthya. Korthaha prakriyadashayam pratyekam arthavatrena prithagrihitanam padanam samudayashaktya vishishta ekartha pratipadakata rupam. Ekarthi bhava, the word is self-explanatory. Ekarthi bhavanam. So there were different meanings earlier, so they merged together to give a single meaning. That is called ekarthi bhava samasya. That is why we say, prakriyadashayam pratyekam arthavatvena prithagrihitanam padanam. So the words are, they carry separate meanings in the initial stage. But samudaya shaktya, as they join together, because of the power of that samudaya, vishishta ekartha pratipadakata rupam. They merge with each other to give a single meaning. That is called ekarthi bhava samarthya. In this case, we define samartha as samsrishtaha arthaha. It is not just being related to each other. It is being able to merge with each other. Samsrishta is that which is merged with each other. Okay? Samsrishtaha arthaha samarthaha. This is what happens in a samasa. Kayata says it is like you have this panka. Panka is like a swamp where you have water and you have mud and you have many other components, but they are mixed so well together that you cannot separate. You cannot separate the water and the mud and things separately. They are joined together very well. That is called samsrishta. So this samarthya, where the words can merge together to produce a single meaning, is called ekarthi bhava samarthya. And this is seen in vritti. Vrittaveva ekarthi bhava samarthyam drishyate. As we know, vishishta ekartha pratipadika vrittihi. We studied last time. So vritti is where such words merge together to give a single meaning. So this kind of samarthya is required for padavidhi. When we say samartha padavidhi iti uchyate, atra etadrisham samarthyameva apekshyate. Ekarthi bhava samarthyam bhavet samase. Tadrisham samarthyam nasti chet samaso na bhavati. Udaharanam asti, pashyati krishnam shrito devadattam. Krishnam shritaha krishna shritaha iti samasaha asti. He who has taken shelter in Krishna. Krishnam shritaha ityatra dvitiya tatvisha samasaha bhavati. Kintu pashyati krishnam shrito devadattam. Krishnam pashyati devadattam shritaha ityatra krishnam shritaha krishna shritaha iti samasaha na bhavati. Kutona bhavati ekarthi bhava samarthyam nasti. So parasparam atra ekarthi bhava samarthyam nasti. Krishnam shritaha iti samudaya shaktya ekartham gamayitum na samartham. So there is no samartha, and that is why no samasa. Aha pashyati, kashchit pashyati shritaha na pashyati. Shritaha ve pashyet. Kashchit krishnam pashyati devadattam shritaha iti. This is also the case in Taddhita. For example, Dasharathasya apatyam dasharathihi iti Taddhita pratyaha bhavati. Vastram Dasharathasya apatyam chaitrasya iti kinchit vakyam asti chet. Dasharathasya vastram chaitrasya apatyam. So parasparanmaya bhavaha. Again, there is no samarthya for Dasharathasya apatyam. You cannot join this together here to form a word called Dasharathi. So this is because of the absence of Ekarthi Bhava Samarthya. We also see some other kind. I mean, these are direct cases where say Krishnam is related to Pashyati and Shrita is related to Devadatta. If you look at the third example, Sundaryaha Sitayaha Patihi. Sitayaha Patihi iti tu satyam asti. Sitayaha Patishabdena saha Anvayaha asti. Sita is related to Pati. Hindu, tathapi atra ekarthi bhava samarthyam nasti. Sundaryaha sitapatihi iti samasaha na bhavati. Right? I mean, on just on hearing you can make out that that is not the right samasa. Sundaryaha sitapatihi iti na bhavati. Sundaryaha sitayaha patihi iti vakyameva bhavati. यतोहि अत्र सीतायाः पतिः इत्येतयोः शब्दयोः व्यपेक्षासामर्थ्यमेव अस्ति, एकार्थीभावसामर्थ्यं नास्ति. सो एकार्थीभावसामर्थ्य इस् अ कैण्ड् वेर् द वर्ड्स् हेव् द सामर्थ्य टु मर्ज् टुगेदर् टु गिव् अ सिङ्गल् मीनिङ्ग् विच् इस् नाट् प्रेसेण्ट् वेन् देर् इस् अ विशेषण फोर् वन् आफ़् द वर्ड्स्. दट् इस् द केस् हियर्. सो वेन् यु हेव् अ विशेषण फोर् सीता, सीता विल् लूस् इट्स् एबिलिटि टु मर्ज् वित् पति टु फार्म् सीतापति. अत एव सुन्दर्याः सीतायाः पतिः इत्यत्रापि किं न भवति, समासः न भवति. सो दिस् इस् आल्सो केस् वेर् देर् इस् नो एकार्थीभावसामर्थ्य. सिमिलर्लि रुद्धस्य दशरथस्य अपत्यम्, दशरथस्य अपत्यं दाशरथिः इति भवति. किन्तु दशरथशब्दस्य यदि विशेषणं विद्यते रुद्धस्य, रुद्धः नाम धनिकः समृद्धः इत्यर्थः, रुद्धस्य दाशरथिः इत्यपि कथितवृत्तिः न भवति. सो दीस् आर् आल् केसेस् वेर् यु केन् सी देर् इस् नो एकार्थीभावसामर्थ्य. एकार्थीभावसामर्थ्यं नास्ति इत्यतः एतेषु सर्वेषु उदाहरणेषु समासः न भवति. यत्र एकार्थीभावसामर्थ्यं तत्रैव समासः, स एव समर्थः पदविधिः इति प्रथमं सूत्रम् उच्यते. क्रियते एकार्थीभावसामर्थ्य. एनि क्वश्चन्? अग्रिमं सूत्रमस्ति प्राक् कडारात् समासः. प्राक् कडारात् समासः इति पदत्रयं विद्यते. इदम् अधिकारसूत्रम्. दिस् इस् एन् अधिकार विच् एक्स्टेण्ड्स् टिल् द एण्ड् आफ् समासप्रकरण. कडाराः कर्मधारये इत्यतः प्राक् समासः इति अधिक्रियते. कडाराः कर्मधारये इति सूत्रं विद्यते द्वितीयाध्यायस्य द्वितीयपादस्य अन्तिमं सूत्रम्. इट् इस् द लास्ट् सूत्र आफ् द सेकेण्ड् पाद आफ् अष्टाध्यायी. The second part of the second chapter. As I said, Samasa Prakaranam, Dvitiya Adhyayasya Prathama Padadarabhya, Dvitiya Adhyayasya Dvitiya Padasya Antya Paryantam Gacchati. So, Sarvatra Prakkadarat Samasaha, Samasaha Ityadhikaraha Gacchati. So, everywhere, whatever Panini says next, he says Samasaha, Samasaha, Samasaha. Himna, Samasaha, Samasa Shabdasya Nishpatthihi Kaha, Ka Nishpatthihi. How do we derive the word Samasa? समस्यते अनेकं पदम् इति समासः. सो मेनी वर्ड्स् जायिनिङ्ग् टुगेदर् इट्सेल्फ् इस् काल्ड् समास. सम् इति उपसर्गः. असु क्षेपणे धातुः. अस् धातुः अस्ति. देर् आर् टु अस् कैण्ड्स् आफ् अस् धातुस्. द वन् इस् द अस्तिस्तः सन्ति विच् एव्रिबडि नोस् असु असभुवि इति धातुः. असु क्षेपणे इत्यपि धातुः अस्ति. दैवादिकः. इट् बिलोङ्ग्स् टु द फोर्थ् गण. लैक् यु हेव् नृत्यति, दीव्यति एक्सेट्रा. अस्यति इति रूपं भवति. सो तस्मात् धातोः निष्पन्नः. अकर्तरि च कारके संज्ञायाम् इति कर्मणि घञ् प्रत्ययः. सो इट् हेस् अ घञ्. यु हेव् सम् उपसर्गः. असु धातुः घञ् प्रत्ययः. कर्मार्थे घञ् प्रत्ययः. सम्पूर्वकस्य अस्यतेः धातु वेन् केवलस्य धातोः क्षेपणम् अर्थः. किन्तु सम्पूर्वकस्य अस्यतेः यदा असु धातुः सम् इति उपसर्गपूर्वकः भवति तदा एकीकरणात्मकः संश्लेषः तस्य अर्थः. उपसर्गबलेन धात्वर्थः भिद्यते. सम्पूर्वकस्य अस्यतेः संश्लेषः. एज़् आई सेड, संश्लेषः इस् मर्जिङ्ग् टुगेदर्. एकीकरणात्मकः, टु बिकम् वन् आर् टु मर्ज् इस् द मीनिङ्ग् आफ् असु धातु प्रिसीडेड् बै सम्. So when this is added, when the suffix ghai is added to this dhatu, you get the word samasa. Anvartha samya. Yatra samasyate saha samasaha. Where there is samasana, this is eki karana or samshlesha, that is called samasa. So this adhikara extends till the end of second pada. Now there is a question here which they will ask. प्रायेण यदा पाणिनिना एवम् अधिकारसूत्रस्य व्याप्तिः निर्दिश्यते, वेन् हि इस् ट्रैङ्ग् टु डिफैन् द रेञ्ज् आफ् एन् अधिकारसूत्र, हि यूसस् द टर्म् आ. आम् इस् एन् उपसर्ग. लैक् हि से आबालम्, आवृद्धम् इत्यादि. सो आबालम् इत्युक्ते बालेभ्यः आरभ्य, आबालम् आवृद्धम् इत्युक्ते वृद्धपर्यन्तम् इत्यादिरीत्या पाणिनिना अपि तथैव उच्यते. आकडारादेका संज्ञा इति उच्यते. सो टिल्
somewhere you have vyadhikaram. Atra tu panina prak iti padam upayujyate. So why say prak when you can say a? A is shorter than prak. And as you all know, alpaksharam iti sutrasya prathamam lakshanam. The first characteristic of a sutra is alpakshara, to be as short as possible. Now, when he could have said a, why is he using prak? Is there any significance? Is a question which the Bhashyakara asks. Okay. Akadarad ityeva siddhe prak grahanam kimartham iti prashnah tada bhashyakarena ucyate ekasamyadhikarepi avyayibhavadi samyasamuchayartham etattu gnyatavyam akadarad ekasamya iti ekam sutram asti. That is a sutra which is there in the fourth pada of the first chapter prathamadhyayase chaturtha pade akadarad ekasamya iti ekam sutram asti. Kadara is again till Kadara Karmadhare. Kimuchyate tena sutrena ityukte, Kadara Karmadhare iti sutra paryantam, ekasya ekasamya bhavati. One particle or one component can get a single samya. There are many cases where many samyas can be there together. But this sutra says, in this particular range of Ashtadhyayi, there is a single samya, akadarad eka samya iti uchyate tena sutrena. Now, in samasa, we need more than one samya. Okay? Yatha samasa samya api ishyate, avyayi bhava samya api ishyate. So, if there is a samasa, say krishnasya samikam upakrishnam ityasti sete, tatra samasaha ityati samya ishyate, avyayi bhavaha ityati samya ishyate. Evam rajya purushaha raja purushaha iti asti sete, samasaha ityapi samya ishyate, tatpurushaha ityapi samya ishyate. We want a combination of samyas in samasa. Along with samasa samya, we need other samyas also to be there. So, for that, tadartham, akadarat ityeva siddhe pragrahayam, eka samyadhikareti, even though this resides in eka samyadhikara, all these sutras, avyayi bhavadi samya samuchayartham, to join the samyas like avyayi bhava along with the samya of samasa. Samasa samya api bhavet, avyayi bhavadi samya api bhaveyuhu. Ityetadartham pragrahanam. Iti bhashyakarena uchyate. So that is about prakkadara samasaha. Adhikara sutram. There is no special meaning for it. It just says in all the following sutras we have the samya called samasa. Agrimam sutram asti saha supa. Padadvayam saha supa iti samasaha iti adhikaraha asti. Subamantyate parangavatsvare iti sutrat sup iti anuvartate. So sup supa saha iti sutram vastutaha. Kintu saha iti yogo vibhajyate. This particular sutra is split into two. Saha iti ekam sutram. Supa iti aparam sutram. Now the first sutra is only saha. Saha iti sutram asti sup iti subamantite parangavatsvare ityataha sup iti anuvartate. Sup nama subantam. Pratyaya grahane tadanta grahyaha iti niyamaha. Wherever in a sutra there is a pratyaya, we take tadanta. So if he says sup, it is not the sup pratyaya which will come by, it is a subanta. Subantam. Subantam samasyate. Kena saha samasyate? Iti cheta samarthena saha. Samartha palavidhi iti paribhasha. So any subanta can combine with anything which has samartha. Iti idam sutram. It becomes a very very general sutra. Right? Subantam samarthena saha samasyate. A subanta can join with any word which has ekarthi bhava samarthya. But this sutra cannot be used everywhere. Okay, it's a very very general sutra. Sarvatra upayoktum na shakyate. Kimartham yoga vibhagasya ishta siddhyarthatva. Yatra yatra yoga vibhagaha kriyate, tatra ishta siddhihi eva phalam bhavati. So why do we do yoga vibhaga? Yoga vibhagaha nama yogasya sutrasya vibhagaha. An existing single sutra is split into two or more sutras. And why do we do yoga, not we. I mean, we cannot do yoga vibhaga. Kimartham bhashyakarena yoga vibhaga kriyate ityukte ishta siddhyartham. Kvachit prayoga asti. There is some prayoga where you need to substantiate the prayoga and you don't have a sutra. So by splitting up some sutra, you get that paniniyatvam, sadhayitam, sahayakaram bhavati, tadartham eva yoga vibhaga kriyate. किंतु योग विभाग से इष्टसिद्धार्थत्वा तदर्थमेव उपयोक्तुं शक्यते यत्र शिष्ट प्रयोगः पूर्वमेव विद्यते तत् समर्थयितुं एव योग विभागः उपयोक्तुं शक्यः न तु नूतनं प्रयोगं कर्तुं सो यूजिंग दिस सूत्र इवन दो दिस इज अ जनरल सूत्र यू कैन नॉट क्रिएट न्यू समासस वेयर यू सिंपली जॉइन अ सुबंता विद एनी समर्थ पद सो योग विभागस्य इष्टसिद्धार्थत्वात् Katipaya tingantottara padoyam samasaha. This samasa is seen only in case of a very few prayogas where tinganta is an uttarapada. Asmavihi sadharana niyamaha kaha patitaha subantam subantena samasrite. Samasaha nama subanta yoho. Always it is only the subantas which join in a samasa. No, there are a very few cases where we need a samasa for Asubanta with the Tinganta. So in such case, we achieve it by doing a Yoga Vibhaga. Atra Yoga Vibhagena, Tingantena saha, Subantasya samasaha siddhyati, hintu katipaya tingantottara padoyam samasaha, sarvaihi tingantaihi samasaha nasti, kevalam kaischit tingantaisaha samasaha, sata chandasyeva, tadapi vedeshu eva, vede etra padani drishyante, tasya samarthanartham saha iti Yoga Vibhagaha, क्रियते उदाहरण द्वयम् दीयते पर्यभूषयत् अनुव्यसनत् परि इति प्रादिः इट इज अ प्रादि इज एन उपसर्ग बट इट डज देयर इज नो उपसर्ग समय हियर इट इज अ सुबंत इट इज अ प्रादि इट हैज अव्यय अव्ययत्वम् अस्ति अतः सुबुत्पत्तिः भवति सुपम लोपोपि भवति परि इति सुबंतम् अभूषयत् इति तिङन्तेन समासे पर्यभूषयत् Similarly, anuvyasanat. So there is a difference between an upasarga. That is, I am saying this is not an upasarga. Upasargasya edrupam tathaiva drishyate kintu tva samasaha asti. The speciality in just saying there is an upasarga to a dhatu and saying there is a samasa between apradi, asubanta and asinganta is svare vyatyaha bhavati. Atra evam samase krute samasa antodattatve shesha nighataha drishyate. Svare bhedaha drishyate. There is The udatta anudatta swaras in some cases will vary. Tadarthameva samasaha kriyate. We just want the rupa, whether we have upasarga for a dhatu or make a samasa of a subanta with a tingata, it does not matter. Hintu, svare yatyaha bhavati. Chandasi nama vedeshu swarasyeva pradhanyam. Swaras are very very important in Veda. So, vede etadrisham swaram sadhayitum. समासः अपेक्ष्यते सुबन्तस्य तिङन्तेन सह समासः सह समासः सह इति योगविभागेन साध्यते सहसुपा इति सूत्रे सह इति योगो विभज्यते सुबन्तं समर्थेन सह समस्यते इति अर्थं कृत्वा कदाचित् एतादृशाः प्रयोगाः साध्यन्ते सो दिस् इस् जस्ट् टु नो वाट् आर् द कैण्ड्स् आफ् प्रयोगास् विच् आर् substantiated by the sutra, but this sutra will not help us in making any samasas. Asmabhihi saha iti vibhaktam sutram upadithya kimapi nutanam rupam nirmatum na shakyate. It is only to substantiate existing prayogas in the Vedas. Irani supa iti sutram asti. There was a single sutra called saha supa. It was split into two. Prathamam sutramasi saha iti, dvitiyam sutramasti supa iti. Idanim supa iti sutra, purva sutrat saha iti anuvartate. Supa mantate parangavatsare iti sutrat sup iti anuvartate. Kortaha sup supa saha. Subantam subantena saha samasyate. Samarthaha iti asti. So, a subanta will join with a samartha subanta. So, this is The Paribhasha which tells us, this is from where we are getting the rule, subantayoreva samasaha. Because Panini, before starting the real samasa, he says, saha supa. Subantam subantena samasyate. A subanta will, can be combined with another subanta. And that will be a samasa. Now, sup supasaha samasyate. Ityatra, there is no special category of samasa. Right? He just says a subanta can join with a samartha subanta. And this itself is what we read last time as kevala samasa. Samase vaidithyam iti drishtam. Kevala samasaha tathaiva vishesha samasaha ityasti. Kevala samasaha nama yatra vishishta samasa samya nasti. This is neither avyayibhava nor tatpurusha nor bahubrihi nor dvandva. Okay. Before starting those special samyas, this is a general sutra which is again used only for a few words. Keshanchana shabdanam sadhanartham eva upayujyate. The real samasa prakarana starts next. Having defined all the general rules, Panini first defines the general rules. First he says samarthaha, there should be samarthya. Then he says sahasupa, that. Then he gives the samasa samya, he says nakkadara samasaha. And then he says sahasupa. In any samasa, sup will come, subanta will combine with subanta. And then he starts with the real samasas. That is avyayibhava. He starts with avyayibhava. But, so before we go into the samasa, we use this general sutra to achieve something. Keshanchana prayoganam sadhanartham sahasupa iti sutram upayujyate. Ekam tu yoga vibhagena chandasanam keshanchana tinantottara padanam samasanam prayogaha sadhyate. Punaha sahasupa iti sutrena kevala samasaha. So a samasa where there is no particular samya. That purusha avyayibhavadi kapi samya na bhavati kevalam samasaha asti. Tadrishaha samasaha anena sutrena sadhyate. So for, in the next step we'll see what is the example for a kevala samasa. Katham bhavati samasaha iti kinchit pashyamaha.
येनाक्षर समाम नायम अधिगम्य महेश्वरा तुद्धनम व्याकरणम प्रोक्तं तस्मे पाणिने ये नमः वाक्यकारं वररुचिं भाष्यकारं पतंजलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् मुनित्रयम् नमस्कृत्य तदुक्तिः परिभाषे च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते।